इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निर्हेतिवारि अथ वार्ताः निर्वाचनायोगेन निर्वाचनकार्यक्रमाणां घोषणायाः अनन्तरं राजनीतिकदलानां जनसभाः समारब्धाः निर्वाचनायोगेन निर्वाचनप्रचाराय व्यापकैः दिङ्निर्देशैः सह आदर्श आचारसंहितापि क्रियान्विता जाता ह्यः आन्ध्रप्रदेशस्य पलनाडुजनपदे प्रथमां एनडीए इत्येतस्य जनसभां सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी प्रोदीरितवान् यत् एनडीए इति दलं क्षेत्रगत आकांक्षाभिः राष्ट्रप्रगतिना च सहापि अग्रे चलति असौ अग्रे प्रोक्तवान् यत् एनडीए इत्यस्य दलस्य लक्ष्यं विकसित भारतराष्ट्राय विकसित आन्ध्रप्रदेशस्य निर्माणम् अस्ति श्रीमोदिना भणितं यत् आन्ध्रप्रदेशराज्ये एनडीए इत्यस्य गठबन्धनदलस्य द्विगुणीकरणप्रशासनेन अत्रस्थस्य विकासस्य कृते इतोऽपि गतिं मेलिष्यति प्रधानमन्त्रिणा निगदितं यत् प्रशासनं कृषकेभ्यः अल्पावश्यकतासु अपि ध्यानं प्रददाति एतदतिरिच्य प्रधानमन्त्री कृषकसम्माननिधियोजनायाः अन्तर्गतं क्षेत्रस्यास्य कृषकेभ्यः सप्तशतकोटिरूप्यकाणि अपि प्रदत्तानि श्रीमोदी सबलं प्रत्यपादयत् यत् तस्य प्रशासनस्य कार्यकालावधौ अनेकासां शैक्षणिकसंस्थानानाम् उद्घाटनं शिलान्यासं च विहितम् असौ नागरिकान् विकसितभारताय द्विगुणीप्रशासनचयनाय निवेदितवान् प्रधानमन्त्रिणा आन्ध्रप्रदेशस्य गर्वस्य अपमाने कांग्रेसदलस्य आलोचना कृता सम्मानं प्रदातुं च स्वीयप्रशासनस्य प्रतिबद्धता अपि प्रकाशिता एतस्मिन् जनोपवेशने तेलुगुदेशं पार्टीति दलप्रमुखः एन चन्द्रबाबू नायडूः जनसेनादलप्रमुखः पवनकल्याणः इत्यादयः उपस्थिताः आसन् निर्वाचनायोगः ह्यः स्वीय अन्तर्जालपटले निर्वाचनिकबन्धपत्रेषु सर्वोच्चन्यायालयस्य पञ्जीकरणात् आंकीयरूपेण प्राप्त दत्तांशस्य उपारोपणं कृतवान् एते दत्तांशाः आयोगस्य अन्तर्जालपटले द्रष्टुं शक्यते निर्वाचनायोगः एकस्मिन् वक्तव्ये प्रकाशितं यत् राजनीतिकदलैः सर्वोच्चन्यायालयस्य दिङ्निर्देशानुसारमेव नैर्वाचनिकबन्धपत्रेषु स्वकीय दत्तांशाः पिद्धरूपेण आवरकेन च सह प्रविष्टाः जाताः राजनीतिकदलेभ्यः प्राप्तदत्तांशाः एते अनाविध्येन विनैव सर्वोच्चन्यायालये सञ्चिताः जाताः कांग्रेसदलप्रमुखः राहुलगांधी अकथयत् प्रवर्तमानसंघर्षः भारतीयजनतापार्टी कांग्रेसदलयोर्मध्ये नास्ति अपितु द्वयोः विचारधारयोः मध्ये अस्ति ह्यः दक्षिणमुम्बईनगरस्य तेजपालसभागृहे एकं जनसमूहं सम्बोधयन् श्रीगांधी प्रावोचत् यत् कांग्रेसदलं शासनस्य विकेन्द्रीकरणाय बलं प्रददाति तत्रैव शासनारूढदलस्य विचारधारा इयं वर्तते यत् देशः केन्द्रेण प्रचाल्यते असौ अत्रावसरे महात्मागान्धिनः गृहतः मडीभवनतः अगस्तक्रान्तिमैदान इत्यत्र यावत् न्यायसंकल्पपदयात्रा अपि निस्सारितवान् राहुलगांधी ह्यः मुम्बईनगरे डॉ बी आर अम्बेडकराय तस्य स्मारके चैत्यभूमि इत्यस्मिन् श्रद्धांजलिं समर्पितवान् अपि च संविधानस्य प्रस्तावनाम् उररीकृत्य स्वीय त्रिषष्टिदिवसीया भारतजोडो न्याययात्रा सम्पूरिता महिलानां क्रिकेट प्रीमियर लीग प्रतिस्पर्धायां रॉयल चैलेंजर्स बेंगलुरूदलेन गतरात्रौ डेल्ही कैपिटल्स दलं अष्टस्तोभैः दिल्ल्याः अरुण जेटली क्रीडांगणे पराजितम् प्रतिस्पर्धायाम् अस्यां देहली कैपिटल्स दलेन पदकं विजित्य चतुर्दशाधिकैकशतं धावनांकाः विनिर्मिताः इति वार्ताः